सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि भावे प्रयोगः। वयं कर्तृप्रयोगः तत्र तु परिचयं प्राप्तवन्तः, बहुवारं कर्तृप्रयोगं कुर्मः, किन्तु इदानीं कर्मणि प्रयोगः, भावे प्रयोगः। वयं लट्लकारे तत् कथं भवति इति दृष्टवन्तः। इदानीम् अस्मिन् नूतनपाठे, नाम विंशतितमे पाठे, पुटसङ्ख्या अस्ति 134, तत्र कर्मणि भावे प्रयोगाः तत्र लोट् लकारे कथं भवति इति अस्ति। तत्र साधारणधातुं स्वीकुर्मः, तत्र पठति इति, तत्र पठति इति लट् लकारे परस्मैपदधातु, तस्य कर्मणि रूपं कथं भवति? तत्र उषा भगिनी वदति वा? पठति इति कर्तृ लट्, कर्मणि लट् किं भवति? न पठति इति, पठति इति
पठ्यते,
केवलं पठति इति, केवलं तस्य वदतु, पठति किं भवति? समीचीनमेव, एकमेव वदतु तत्र, पठति इति प्रथमपुरुष एकवचने, तस्य कर्मणि लट् किं भवति?
पठ्यते,
तत्र कार्यं किम् अस्ति? पठति इति तः पठ्यते इति वयं तत्र निर्माणं कथं भवति?
कर्मणि प्रयोगे
न पठ्यति, पठति इति आसीत्, किन्तु पठ्यते इति
यत् प्रत्ययः आगच्छति,
धातुयोगः, धातुयोगः यत् अपि आत्मनेपदीरूपं पठ्यते। अस्तु, इदानीं समीचीनं भगिनि, इदानीं नवरूपाणि वदतु, तत्र किं भवति? पठ्यते,
पठ्येते, पठ्यन्ते, पठ्यसे, पठ्येथे, पठ्यद्वे, पठ्ये, पठ्यावहे, पठ्यामहे इति भवति।
इति भवति, समीचीनं। हा, इदानीं तत्र वेदा भगिनी, इदानीं तत्र अहं पठामि इति स्थाने किं भवति कर्मणि प्रयोगे?
अहं पठामि, अहं मया अहं पठामि, मया पठ्यते,
मया पठ्यते। अस्तु, तत्र वयं पठामः,
वयं पठामः, अस्माभिः अस्माभिः पठ्यते,
पठ्यते एव, समीचीनम्। अस्तु, हा, समीचीनं भगिनि। अस्तु, इदानीं तत्र पठ् इति धातुः तत्र कर्तृप्रयोगे, कर्तृ लटि पठति, कर्मणि लटि पठ्यते इति नवरूपाणि उषा भगिन्या उक्तम्। इदानीम् अग्रे तत्र यदि तत्र आत्मनिपदिधातूनां तत्र किञ्चित् ज्ञानम् अपेक्षितमस्ति, लोट् लकारे रूपाणि कथं भवति इति, अतः तत्र कर्तृ तत्र लोकते इति आत्मनिपदिधातु, कर्तृ लट् लोकते इति अस्ति। तत्र शोभा भगिनी, तत्र कर्तृ लोट् किम् अस्ति?
कर्तृ लोकते, लोकते इति आत्मनेपदी भवति महोदय।
हा, सत्यं, लोकते इति कर्तृ लट्,
कर्तरि लट्,
लोकते, लोकेते, लोकन्ते,
लोकेते, लोकन्ते, वदनीयं वा?
न, इदानीं तत्र कर्तृ लोट् कथं भवति?
कर्तरि लोट् वा?
लोकते इति स्थाने तत्र लोट् किं भवति?
लोकतां इति भवति, क्षम्यताम्, हा, लटि लोकते, लोटि लोकताम् इति भवति।
हा, इदानीं तत्र नवरूपाणि एकवारं वदतु, लोकताम्,
लोकतां लोकेतां लोकन्तां लोकस्व लोकेत्थां लोकध्वं लोकै लोकावहै लोकामहै
हा इति अस्ति एकवारं समीचीनं भगिनी धन्यवादः प्रिया भगिनी तत् प्रिया भगिनी तथैव तत्र मोदते इति तत्र मोदते इति कर्त्री लटि इदानीं कर्त्री लोटि किं भवति
मुद्यते इति भवति
कर्मणि नास्ति केवलं तत्र कर्त्री लोटि
ओ कर्त्री लोटि मोदतु
न न न यतोहि तत्र मोदताम् इति नवरूपाणि एकवारं वदतु
मोदतां मोदेतां मोदन्तां मोदस्व मोदेत्थां मोदध्वं मोदै मोदावहै मोदामहै
हा इति समीचीनं हा अस्तु इदानीं नरेश महोदय पुनः तत्र यतते इति कर्त्री लटि आत्मनिपदि धातु यतते इदानीं तत्र कर्त्री लोटि किं भवति रूपाणि
यतते यततां यतेतां यतन्तां
समीचीनं
अस्व यतेथां यतध्वं यतै यतावहै यतामहै
समीचीनम् उत्तमम् अस्तु अत्र अन्य कोऽपि के के सन्ति अपर्णा भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः सुधा भगिनी नमस्कारः
सुजाता अस्मि महोदय
तत्र पुटसङ्ख्या अस्ति 134 भगिनि किन्तु तत्र पाठात् प्राक् तत्र आत्मनिपदि धातूनां लोट् लकारस्य रूपस्य पुनस्मरणं कुर्वन्तः स्मः अतः तत्र अपर्णा भगिनी तत्र शोभते इति आत्मनिपदि धातु लटि शोभते इदानीं तत्र लोटि रूपाणि एकवारं वदति वा भगिनि
शोभतां शोभेतां शोभन्ताम् शोभत्व शोभेत्थां शोभध्वं शोभै शोभावहै शोभामहै
हा उत्तमं भगिनि अस्तु समीचीनम् इदानीं तत्र सुजाता भगिनी इदानीं तत्र रमते इति लटि कर्त्री लटि रमते कर्त्री लो किं भवति लोट् लकारे
रमतां रमेतां रमन्ताम् रमस्व रमेथां रमध्वं रमै रमावहै रमामहै
समीचीनम् अस्तु तत्र वंशीसुधा भगिनी वक्तुं शक्नोति वा अथवा अनन्तरं वदति वा
धन्यवादः महोदय
अधुना वदामि महोदय
अस्तु तर्हि अस्तु भगिनी तर्हि तत्र सहते इति तत्र कर्त्री लटि कर्त्री लोटि किं भवति
सहेतां सहतां सहेतां सहन्तां सहस्व सहेत्थां सहध्वं सहै सहावहे सहामहे
हा इति समीचीनम् उत्तमम् अस्तु अतः इदानीं तत्र लोट्लकारस्य आत्मनिपदि धातूनां लोट्लकारस्य पुनस्मरणं जातं चेत् इदानीं तत्र कर्मणि भावे प्रयोगे लोट्लकारे रूपाणि कथं भवति इति सुलभतया वयं तत्र कर्तुं शक्नुमः यतोहि तत्र पठति अस्ति चेत् तत्र कर्मणि लटि किं भवति पठ्यते इति भवति पठति इति स्थाने पठति इति कर्त्री लट् कर्मणि लट् अस्ति पठ्यते इदानीं तत्र कर्मणि लोट् अपेक्षितं चेत् पठ्यते यथा वयं तत्र मोदते इति मोदताम् इति कृतवन्तः तथैव पठ्यते इति स्थाने पठ्यताम् इति वक्तव्यं तावदेव अस्ति अतः सोपानद्वयमस्ति तत्र कर्त्रीतः यदि कर्मणि लोट् इच्छामः प्रथमतया कर्मणि लट् तस्य निर्माणं पठति इति तः पठ्यते तदनन्तरं द्वितीयसोपानमस्ति पठ्यते तत्र कर्मणि लट् अस्ति कर्मणि लोट् इच्छामः अतः तत्र पठ्यते इति स्थाने पठ्यताम् अतः सोपानद्वयम् अस्ति तत्र सर्वे अवगच्छन्ति खलु अतः तत्र लोट् लकारस्य कर्मणि लोट् सुलभतया कर्तुं शक्नुमः यदि कर्मणि लट् तस्य ज्ञानम् अस्माकम् अस्ति अतः तत्र इदानीं पूर्वस्मिन् पाठे तत्र पठ्यते एतादृशं रूपाणि एव आसीत् लट् लकारे इदानीं सर्वं लोट् लकारे भवति अतः तत्र अस् धातोः अस्ति अथवा भवति तस्य कर्मणि लटि किं भवति भूयते इदानीं तत्र वेदा भगिनी तत्र भूयते इति कर्मणि लटि अस्ति कर्मणि लोटि किं भवति
भूयतां
भूयताम् इति भवति अस्तु नरेश महोदय तत्र क्रियते इति तत्र कर्मणि लटि अस्ति कर्मणि लोटि
लटि तु क्रियते
लोटि
क्रियताम्
क्रियताम् इति अस्ति समीचीनं प्रिया भगिनी तत्र कर्मणि लटि उच्यते इति अस्ति कर्मणि लोटि रूपं किं भवति
उच्यताम्
उच्यताम् इति हा समीचीनम् अस्तु शोभा भगिनी अवलोक्यते इति अस्ति अवलोक्यताम् इति अस्ति समीचीनं सुजाता भगिनी त्यज्यते इति अस्ति कर्मणि लटि कर्मणि लोटि किं भवति
त्यज्यताम्
समीचीनं हा इदानीं तत्र अपर्णा भगिनी तत्र श्राव्यते इति अस्ति कर्मणि लटि कर्मणि लोटि
श्राव्यताम्
श्राव्यताम् हा समीचीनम् अस्तु अतः तत्र सर्वे ओ तत्र उषा भगिनी तत्र हा चिन्त्यते इति कर्मणि लटि कर्मणि लोटि
चिन्त्यताम्
चिन्त्यताम् इति अस्ति समीचीनम् अस्तु अतः तत्र यदि कर्मणि लट् जानीमः कर्मणि लोट् सुलभतया कर्तुं शक्नुमः अतः तत्र क्लेशः मास्तु सम्यक्तया कर्तुं शक्नुमः तत्र यद्यपि तत्र परस्मैपदी धातुः अस्ति तत्र रक्षतु इति अस्ति किन्तु कर्मणि लोटि तत्र किं भवति रक्षतु इति कर्तृ लोट् अस्ति किन्तु कर्मणि रक्ष्यताम् इति भवति अतः तत्र परस्मैपदी धातुः अस्ति चेदपि तत्र कर्मणि प्रयोगे सर्वदा आत्मनिपदी धातुः इव एव भवति इति स्मर्तव्यम् अस्ति तावदेव अस्तु तर्हि अतः तत्र साक्षात् पाठः यः अस्ति तस्य पठनं कर्तुं शक्नुमः इति मन्ये अतः तत्र प्रिया भगिनी आरम्भं करोति वा पेज् 134
एतत् सम्भाषणम् उच्चैः पठत दुर्योधनः आचार्य प्रणामः कृपया उत्थीयताम् शीघ्रं समुत्थीयताम् सूर्योदयः समासन्नः द्रोणः वत्स किमपि वदनीयं वा
न भवती तत्र वाक्यत्रयं पठित्वा तदनन्तरम् एकमेकं वाक्यं स्वीकृत्य किञ्चित् वदतु भगिनि
द्रोणः वत्स भवता सावधानेन भूयताम् त्वरया किमपि न क्रियताम् दुर्योधनः गुरुवर्य कथं मया सावधानेन भूयताम् आतङ्कवता मया किमपि क्रियतामेव खलु
तावत्पर्यन्तम् इदानीम्
अस्तु दुर्योधनः द्रोणं वदति कृपया उत्थीयताम् अत्र उत्थीयताम् स्था धातु इति मन्ये
भगिनी एतत् कुर्मः तत्र कृपया उत्थीयताम् इति अस्ति तत्र कर्तृपदम् अस्ति वा दत्तमस्ति वा
भवान् उत्थीयताम् इति वा
किन्तु कर्मणि अस्ति खलु अतः
ओ भवता उत्थीयताम्
इति अस्ति समीचीनं तत्र कर्मपदं नास्ति यतोहि उत्थीयतां तत्र एतद् भावे प्रयोगः अस्ति खलु तत्र कर्मपदम् अकर्मकधातुः अस्ति अतः तत्र भवता उत्थीयताम् इदानीं कर्तृरूपं वदतु
भवान्
उत्तिष्ठतु
उत्तिष्ठतु उत्तिष्ठतु
यतोहि इदानीं लोट् लकारः अपेक्षितमस्ति अपेक्षितः तत्र पूर्वं तत्र भवता पठ्यते भवान् पठति इति आसीत् किन्तु इदानीं भवता पठ्यताम् इति अस्ति चेत् वयं कर्तृप्रयोगः भवति चेत् तत्रापि लोट् लकारः एव भवति अतः भवान् पठतु इति रूपं भवतु अतः तत्र भवान्
उत्तिष्ठतु
इदानीं द्वितीयवाक्यं
शीघ्रं समुत्थीयतां भवान् एव अत्रापि भवान् शीघ्रं समुत्थीयतां क्षमतां भवता शीघ्रं समुत्थीयतां भवान् शीघ्रं समुत्तिष्ठतु
हा समुत्तिष्ठतु इति समीचीनं अग्रे
अग्रे भवता सावधानेन भूयतां भवान्
सूर्योदयः समासन
सूर्योदयः उपागतः इति
हा नाम सूर्योदयः समीपः अस्ति तत्र शीघ्रमेव सूर्योदयः भवति समीचीनम् अस्तु अग्रे
वत्स भवता सावधानेन भूयताम् अत्र सावधानेन क्रियाविशेषणमस्ति ततः तस्य परिवर्तनं न भवति भवता भूयतां भवान् भवतु भवान् सावधानेन भवतु इति
हा समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे
त्वरया किमपि न क्रियताम् अत्रापि त्वरया इति क्रियाविशेषणमेव भवता त्वरया किमपि न क्रियताम् भवान् त्वरया किमपि न करोतु
हा इति समीचीनं हा अस्तु भगिनि अग्रे
गुरुवर्य कथं मया सावधानेन भूयतां सावधानेन क्रियाविशेषणं कथम् अहं सावधानेन भवामि भवानि
हा भवानि इति समीचीनं हा लोट् लकारः तत्र भवामि इति लटि भवानि इति लोटि समीचीनं कथम् अहं सावधानेन भवानि हा
आतङ्कवता मया किमपि क्रियतामेव खलु अत्र आतङ्कवता मया इति पदस्य विशेषणमस्ति
समीचीनं
ततः आतङ्कवता अहं किमपि करवाणि एव खलु इति
हा करवाणि एव खलु समीचीनं किमपि करवाणि एव खलु तत्र मया इति पदस्य विशेषणमस्ति आतङ्कवता इति मया इति पदस्य विभक्ति का
तृतीया आतङ्कवता अपि तृतीया ततः क्षम्यताम् अहं विस्मृतवती आतङ्कवान्
समीचीनं तत्र धनं यस्य अस्ति सः धनवान् आतङ्कः यस्य अस्ति सः आतङ्कवान् तावदेव अतः आतङ्कवान् अहं किमपि करवाणि एव खलु खलु समीचीनं हा आतङ्कवान् तत्र आतङ्कवत् आतङ्कवत् इति तस्य तृतीया आतङ्कवता भवत् शब्दवत् भवता आतङ्कवता समीचीनं भगिनि हा धन्यवादः अस्तु शुभदा भगिनी नमस्कारः मधुसूदन् महोदय नमस्कारः भगिनि मधुसूदन् महोदय नमस्कारः पुटसङ्ख्या अस्ति पुटसङ्ख्या अस्ति 134
अस्तु महोदय
अस्तु अग्रे तत्र नरेश महोदय अग्रे पठति वा
आं महोदय द्रोणः वत्स जानामि भवतः परिस्थितिं वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु
तत्र एतावत् अत्र दुर्योधनः अनन्तरं किं क्रियताम् इति तावत्पर्यन्तं पठतु महोदय
अत्र दुर्योधनः वदति एषः वत्सः दुःशासनः उपस्थितः एव अस्ति दुःशासन वदति आचार्य वन्दे दुर्योधनः वदति आदिश्यताम् अनन्तरं किं क्रियताम् इति प्रथम तु द्रोणः वदति वत्स जानामि भवतः परिस्थितिम् अहं भवतः परिस्थितिं जानामि
तत्र यदि कर्मणि प्रयोगः कुर्मः किं भवति महोदय तत्र रूपं
मया भवतः
ज्ञायते यतोहि परिस्थितिः इति प्रथमपुरुषे एकवचने अस्ति मया
भवतः परिस्थितिः ज्ञायते
ज्ञायते समीचीनम् अस्तु अग्रे वत्सेन
वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु
तत्र कर्तृपदं किमस्ति
कर्तृपदं तु त्वं भूयतां भवान्
न न भूयतां भावेप्रयोगः भावेप्रयोगः तत्र सर्वदा प्रथमपुरुषे एकवचने एव भवति खलु
सन्निहितेन भूयतां
तत्र भावेप्रयोगे कर्तृप्रयोगे कर्तृपदस्य विभक्तिः का
कर्त्रे
भावे क्षम्यतां कर्तृप्रयोग कर्तृ इति क्षम्यतां कर्मणि प्रयोगे भावे प्रयोगे च तत्र कर्तृपदस्य विभक्तिः का
कर्तृपदस्य तृतीया
हा अत्र तृतीया पद तृतीया विभक्त्यन्तं पदम् अस्ति वा अस्मिन् वाक्ये
तत् अस्ति परन्तु वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु
तत्र पूर्वमासीत् मया सावधानेन भूयतां कथम् इति आसीत् खलु तत्र अहं सावधानेन भवानि वा इति आसीत् किन्तु अत्र किं भवति तत्र वत्सेन दुःशासनेन इति कर्तृपदमस्ति कर्तृपदमस्ति
कर्तृपदमस्ति
कर्तृप्रयोगे रूपं किं भवति
वत्स दुःशासन अपि सन्निहितः भवानि खलु
तत्र भवानि इति तत्र तु इदानीं कर्तृप्रयोगः अस्ति अतः कर्तृपदम् अनुसरति क्रियापदम् अत्र कर्तृपदमस्ति वत्सः दुःशासनः अतः कर्तृपदस्य प्रथमा क्रियापदस्य प्रथमपुरुष एकवचनरूपं भवेत् खलु
अस्तु भवेत् अस्ति
न न लोट् लकारः अस्ति लोट् लकारः तत्र भवति इति स्थाने
भवतु
भवतु तत्र सन्निहितः भवतु अथवा सन्निहितेन भवतु खलु तदपि समीचीनं तत्र सन्निहितेन इति तत्र वयं तत्र दुःशासन इति पदस्य विशेषं नास्ति इति अपि चिन्तयितुं शक्नुमः
वत्सः दुःशासनः अपि सन्निहितेन भवतु खलु
इति अस्तु समीचीनं अग्रे
एषः वत्सः दुःशासनः उपस्थितः एव
नाम दुःशासनः तत्र समीपे एव अस्ति सः तत्र उपस्थितः अस्ति सः तत्र अस्ति तत्र अस्ति एव तत्र दुर्द्रोणः उक्तवान् अस्तु तत्र दुःशासनः अपि तत्र अत्र भवेत् खलु इति तत्र अतः दुर्योधनः उक्तवान् आमामां सः अपि अत्र एव
अत्र एव सः अपि तदा दुःशासनः आचार्यं वन्दति आचार्ये वन्दे
तत्र वन्दे इति अस्ति तत्र पूर्णवाक्यं कर्तृपदस्य योजनेन पूर्णवाक्यं वदतु किं भवति
आचार्य भवतां वन्दानि
न केवलं वन्दे इति अस्ति वन्दे इति केवलं क्रियापदमस्ति तत्र कर्तृपदं योजयतु
भवताम् आचार्य
वन्दे वन्दे इति रूपमस्ति वन्दे इति
अहं वन्दे
तावदेव कर्तृरूपमेव अस्ति कर्तृलटि अस्ति कर्तृलहं
वन्दे
अहं वन्दे तत्र अथवा अहं भवन्तं वन्दे तावदेव अतः तत्र अहं वन्दे तावदेव अस्ति अस्तु अग्रे
आदिश्यताम् आदिश्यताम् आदेशं ददातु
हा इति अस्ति तत्र आदिश्यते तत्र कोऽपि जानाति वा तत्र कर्तृ लोटि लटि किं रूपम्
आदिशतु
आदिशतु हा आदिशतु भवता आदिशतु क्षम्यतां भवता आदिश्यताम् अथवा भवान् आदिशतु
आदिशतु
किम् अनन्तरम् अनन्तरं
किं क्रियताम्
इति
अनन्तरम्
इदानीं तत्र इदानीं तत्र किं क्रियताम् इति नाम मया
किं क्रियताम्
इति आदिशतु अतः तत्र अहं किं
करवाणि
करवाणि इति
करवाणि
इति आदिशतु इति समीचीनं महोदय अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा
आं महोदय द्रोणः श्रूयतां प्रथमं सर्वसैनाधिपः सर्वसैनासंरक्षकः भीष्मपितामहः प्रबोध्यताम् दुर्योधनः अस्तु तत्र भवता स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम् तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम् वत्स भवता अत्र एव भूयताम् अनुष्ठानानन्तरम् आचार्यः रणक्षेत्रम् आनीयताम् दुःशासनः अस्तु
तावत्पर्यन्तं
अस्तु महोदय द्रोणः वदति श्रूयताम् इत्युक्ते भवता श्रूयताम् अथवा कर्तरि अस्ति चेत् भवान् शृणोतु
समीचीनं भवान् शृणोतु
प्रथमं सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यताम् अत्र भीष्मपितामहः कर्मपदमस्ति महोदय
समीचीनम् अस्तु
भवता सर्वसैनाधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यताम् कर्तरिप्रयोगे
भवता अथवा यतोहि द्रोणः दुर्योधनम् उद्दिश्य वदति तत्र भवता अथवा त्वया अपि समीचीनम्
कर्तरि अस्ति चेत् प्रथमं भवान् सर्वसैन्याधिपं सर्वसेनासंरक्षकं भीष्मपितामहः अथवा पितामहं सर्वसेना
किं चिन्तनं भवत्या
कर्तरिप्रयोगे कर्मपदं द्वितीयाविभक्ति
अतः
द्वितीयभक्त्यन्तम् अस्ति भीष्मपितामहं प्रबोध्यताम् प्रबोध्यतां प्रबोध्यतु इति भवति वा महोदय
प्रबोधयतु
प्रबोधयतु अस्तु दुर्योधन
तत्र सर्वसेनाधिपः सर्वसेनासंरक्षकः इति अस्ति तत्र तेषां पदानां कार्यं किम् अस्ति वाक्ये
प्रथमं सर्वसैनाधिपं
सर्वसैनाधिपः कः अस्ति तत्र
इत्युक्ते किं वदनीयं महोदय
वदतु तत्र कर्तृपदम् अस्ति वा तत्र
भीष्मपितामहः कर्मपदम् अस्ति सर्वसैनाधिपः अपि च सर्वसैना कर्तृपदम् अस्ति
भीष्मपितामहः कर्मपदम् अपि सर्वसैनाधिपः कर्तृपदम् इति वा
न न न महोदय
न अस्तु
भीष्मपितामहः कर्मपदम् अस्ति विशेषणम् महोदय
समीचीनं भगिनि हा तथैव अस्ति भीष्मपितामहः कीदृशः सः सर्वसेनासंरक्षकः
सर्वसैनासंरक्षकः अस्ति भीष्मपितामहः
सर्वसैन्याधिपः अपि सर्वसेनासंरक्षकः अस्ति भीष्मपितामहः अतः यदि तत्र कर्तृप्रयोगे भीष्मपितामहः इति तस्य द्वितीयविभक्त्यन्तं रूपं भवति तथैव विशेषणस्य अपि द्वितीयविभक्त्यन्तं भवति समीचीनं हा
प्रबोध्यताम् इत्युक्ते किम् अस्ति महोदय
प्रबोधयतु तत्र सः निद्रां करोति इति चेत् न न प्रबोधयतु नाम तत्र निद्रास्थितिः निद्रास्थित्यां सः अस्ति चेत् प्रबोधयतु अवेकन् इति अर्थः किन्तु तत्र ज्ञानस्य अपि प्रबोधनम् इति खलु अज्ञाने स्मः अज्ञाने स्मः तत्र गुरुः अस्मान् प्रबोधयति तथापि तदपि भवति अर्थद्वयं नाम अवेकन् इति अर्थे अस्तु अग्रे
दुर्योधनः अस्ति अस्तु तत्र भवता स्नानानुष्ठादिकं शीघ्रं
स्नानानुष्ठानादिकं
स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम्
तत्र कर्तृपदं किमस्ति
विभक्ति स्नानानुष्ठानादिकं
लघुवाक्यं प्रथमतया लघुवाक्यं वदतु भगिनि
भवता परिसमाप्यताम्
इति भवता
कर्तरी अस्ति चेत् भवान् परिसमाप्यतु
परिसमापयतु इति प्रायशः अस्ति
परिसमापयतु
इदानीं तथा
शीघ्रं परिसमापयतु अत्र भवता षष्टि स्नानानुष्ठानादिकं बहुवचने अस्ति षष्टि बहुवचने
भवता इति षष्टि नास्ति खलु भगिनी
न महोदय स्नानानुष्ठानादिकं
तत् षष्टि वा किमर्थम्
भवता
इति तत् तत्र विभक्ति का भवता
तृतीयविभक्ति महोदय
अतः तत्र कर्तृपदं भवता परिसमाप्यतां कर्मणि प्रयोगे इदानीं कर्तृप्रयोगे भवान् परिसमापयतु
शीघ्रं परिसमापयतु
अतः
तत्र भवताम् इति अस्ति महोदय भवतां स्नानानुष्ठानादिकं
भवताम् इति अस्ति वा
आं महोदय
अस्तु अस्तु भगिनि मम नूतनमुद्रणे अस्तु अस्तु नूतनमुद्रणे तत्र केवलं भवता इति अस्ति अस्तु भवतां तत्र भवताम् अस्ति चेत् तत्र भवताम् इति कर्म कर्तृपदं न भवति अतः कर्तृपदस्य योजनं करणीयमस्ति अस्माभिः अतः तत्र भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम् इति भवेत् अतः तत्र भवान् इति कर्तृपदं भवता इति रूपेण भवति तत्र अतः भवान् परिसमाप्यतु परिसमापयतु किं परिसमापयतु शीघ्रं परिसमापयतु स्नानानुष्ठानादिकं शीघ्रं परिसमापयतु कस्य भवतां भवताम् तत्र भवताम् हा अस्तु समीचीनम् अग्रे
तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम् तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम् भवतः अत्र एव स्थीयताम्
इदानीं तत्र लघु लघुवाक्यं वदतु भगिनि प्रथमतया
स्थीयताम्
भवतः स्थीयतां कथं भवति स्थीयताम् इति अस्ति तत्र भावे अथवा कर्मणि प्रयोगे कर्तृपदस्य विभक्ति का भगिनि
तृतीयविभक्ति महोदय
हा भवतः इति किमर्थम् उक्तं तर्हि
दुःशासनेन स्थीयताम्
हा दुःशासनेन स्थीयताम् अस्तु अस्तु नाम इदानीं कर्मणि लोटि किं भवति
कर्मणि लोटि वा महोदय
न एतत् कर्मणि लोट् अस्ति खलु भगिनि
आं महोदय
कर्त्री लोट् कर्त्री लोट् वदतु
दुःशासनः स्थीयतां का धातु
समीचीनं तिष्ठति
तिष्ठतु न महोदय
समीचीनं
दुःशासनः तिष्ठतु
इदानीं पूर्णवाक्यस्य परिवर्तनं करोतु तर्हि
तत्र भवतः साहाय्यार्थं दुःशासनः अत्र एव तिष्ठतु
तावदेव अस्ति समीचीनं वा अवगच्छति
आं महोदय
तत्र भवतः षष्टि भवतः साहाय्यार्थं दुःशासनः अत्र एव तिष्ठतु अस्तु
वत्स भवता अत्र एव भूयताम् कर्तरी अस्ति चेत् भवान् अत्र एव भवतु
समीचीनम् अग्रे
अनुष्ठानानन्तरम् आचार्यः रणक्षेत्रम् आनीयताम् नी धातु द्विकर्मकः अस्ति न महोदय तत्र
समीचीनं भगिनि अस्तु अत्र कथं ज्ञायते अस्माभिः कथं ज्ञायते नी धातुः द्विकर्मकः अस्ति इति
तत्र वयं पठितवन्तः गौण अपि च प्रधान
समीचीनं
अस्ति चेत् अन्यविभक्ति अपि प्राप्तुं भवति प्रधानकर्म अस्ति चेत् एकं द्वितीया विभक्ति एव भवति महोदय तत्र
समीचीनं समीचीनं समीचीनम् इदानीं तत्र अत्र स्थितिः का इति वदतु
आचार्यः कर्मपदं द्वितीयाविभक्ति एकवचनम् अस्ति तत्र
आचार्यः प्रथमविभक्ति अस्ति
प्रथमाविभक्ति अस्ति वा महोदय
आचार्यः इति अस्ति खलु आनीयताम् प्रथमतया सोपानेन गच्छतु भगिनि तत्र अत्र अत्र किं रूपम् अस्ति कर्मणि रूपम् अस्ति खलु अस्तु क्रियापदं किम् अस्ति
आनीयताम्
अस्तु कर्मपदम् अस्ति वा
आचार्यः रणक्षेत्रम् आनीयताम् कर्मपदं नास्ति महोदय
कर्मपदं नास्ति अस्तु कर्तृपदमस्ति वा
आचार्यः अस्ति न महोदय कर्तृपदम्
अतः तत्र किम् अस्ति आचार्यः आनीयताम् इति वाक्यं वा
आचार्यः अनुष्ठानन्तरम् आचार्यः कर्तरिपदमदनीयं वा कर्मणि पद मदनीयं वा महोदय
भगिनि यत् वाक्यं दत्तमस्ति तस्य विषये किमपि वदतु इदानीं वाक्यमस्ति कर्मणि प्रयोगे इति उक्तवती तस्मिन् विषये यदस्ति तद् वदतु तदनन्तरं कर्तृ वा कर्मणि वा एतत् अन्यत् रूपस्य चर्चा भवेत् किन्तु यद् वाक्ये अस्ति तद् प्रथमतया वदतु भगिनि आनीयताम् इति उक्तवती तत्र क्रियापदं इदानीं कर्तृपदम् अस्ति वा कर्मपदम् अस्ति वा तस्य विषये किञ्चित् वदतु तर्हि.
आचार्यः
तत्र आनीयताम् इति रूपं क्रियापदम् इति उक्तवती तत्र.
आम् महोदय, आनीयतां
कर्मणि तत्र रूप क्रियापदस्य रूपमपि अपि वदतु. तत्र कर्तृ लट् वा कर्मणि लट् वा कर्तृ लोट् वा कर्मणि लोट् वा इति वदतु.
कर्मणि लोट् अस्ति महोदय.
कर्मणि लोट् अस्तु. अस्तु, तत्र प्रयोगः कर्मणि प्रयोगः खलु.
आं महोदय.
अस्तु, इदानीं कर्मणि प्रयोगे कर्तृपदं किम् अस्ति इति कथं जानीमः वयम्?
कर्मणि
किं दृष्ट्वा, कर्मणि प्रयोगवाक्यम् अस्ति चेत् तद् वाक्यं दृष्ट्वा वयं कथं किं पदं कर्तृपदम् इति अस्ति इति अस्माकं ज्ञानं कथं भवति? किं दृष्ट्वा वयम् अस्तु एतत् पदं कर्तृपदम् इति वदामः?
कर्तृपदं तृतीयविभक्त्यन्तम् अस्ति चेत् कर्मणि विभक्ति इति जानीमः महोदय.
अस्तु, कर्मणि प्रयोगे कर्तृपदस्य तृतीयविभक्त्यन्तं भवेत् इति. अस्तु, अत्र कर्तृपदम् अस्ति वा अस्मिन् वाक्ये?
कर्तृपदम् आचार्यः तु तृतीयविभक्त्यन्तं नास्ति. कर्तृपदम् आचार्यः अस्ति महोदय.
अस्तु अस्तु, तत्र अन्य कोऽपि वदेत्. एकनिमिष भगिनि, तत्र अपर्णा भगिनि किञ्चित् साहाय्यं करोति वा?
आम्,
आचार्यः
भवता अनुष्ठानानन्तरं भवता आचार्यः रणक्षेत्रम् आनीयताम्.
हा, भवता इति तत्र भवेत्, भवता आनीयताम्, भवता आचार्यः रणक्षेत्रम् आनीयताम्, भवता इति कर्तृपदं. समीचीनं, तत्र कर्मपदं किम् अस्ति?
आचार्यः
आचार्यः अपि, आचार्यः अपि कर्मपदम् अस्ति, रणक्षेत्रमपि कर्मपदम् अस्ति. हा, तत्र इदानीं कर्तृरूपं वदतु तर्हि.
भवान्
एकनिमिष, उषा भगिनी एकनिमिषः, इदानीम् अपर्णा भगिनी वदति.
अनुष्ठानानन्तरं भवान् आचार्यं रणक्षेत्रम् आनयतु.
आनयतु इति समीचीनं. हा, तत्र आचार्यं रणक्षेत्रम् आनयतु, तत्र कर्मपदद्वयमस्ति, यतोहि तत्र नीधातुः द्विकर्मकः अस्ति यथा उषा भगिन्या उक्तम्. अतः तत्र आचार्यं रणक्षेत्रम् आनयतु, तत्र कर्मपदद्वयमस्ति, तत्र किं पदं गौणकर्मपदं, किं पदं तत्र प्रधानकर्मपदम्?
इति गौणकर्मपदमस्ति, रणक्षेत्रम् इति प्रधानकर्मपदम् अस्ति.
न महोदय, आचार्यः प्रधानः अस्ति, रणक्षेत्रं नपुंसकलिङ्गे अस्ति न महोदय?
तेन किं, नपुंसकलिङ्गे अस्ति चेत् तेन किं?
परन्तु रणक्षेत्रे अपि भवितुम् अर्हति न महोदय? तत्र
रणक्षेत्रे
अन्यविभक्ति अपि भवति.
अन्या विभक्ति का भवितुम् अर्हति तत्र
रणक्षेत्रे?
रणक्षेत्रे अथवा रणक्षेत्राय अपि, रणक्षेत्राय आनयतु इति अपि भवितुमर्हति इति मन्ये. अस्तु, अतः तत्र इदानीं तत्र प्रधानं किं, गौणं किम् अस्ति?
प्रधानकर्म अस्ति आचार्यः, गौणकर्म अस्ति, गौणकर्म अस्ति रणक्षेत्रम्.
हा, अतः तत्र अस्मिन् तत्र नियमः अस्ति, तत्र द्विकर्मकः दातवान् तत्र किं चतुर्विंशति इति किमपि अस्ति खलु, तत्र केचन अथवा षोडशः एव. हा, किन्तु तेषु तत्र केचन दातवः तत्र तेषां तत्र गौणकर्मपदस्य तत्र कर्मणि प्रयोगे प्रथमाविभक्त्यन्तं भवति, केचन दातवः सन्ति तेषां तत्र प्रधानकर्मपदस्य एव तत्र प्रथमविभक्त्यन्तं भवति इति, किन्तु तत् सम्यक्तया न स्मरामि, अग्रिमे वर्गे वदामि, किन्तु अत्र तु तत्र प्रधानकर्मपदस्य एव तत्र प्रथमविभक्त्यन्तं स्वीकृतम् अस्ति. तत्र करपत्रं किमपि अस्ति अग्रिमवर्गे किमपि तत्र तस्य पठनं कुर्मः, तत्र द्विकर्मकधातूनां कर्मणि प्रयोगः कथं भवति इति. अस्तु, इदानीम् अत्र एकम् उदाहरणं तु अस्ति एव. अस्तु, समीचीनम्. अस्तु, अपर्णा भगिनी भवती एव तत्र अग्रे अपि पठतु भगिनि.
आं महोदय. शासनः अस्तु. द्रोणः, वत्स, ततः पूर्वं भवता गत्वा कर्णः उच्यतां मम पूर्वसूचनानुसारं व्यूहः विरच्यताम् इति. अश्वाः, गजाः, रथाः, पदातयः, सर्वे सैनिकाः च यथास्थानं स्थाप्यन्ताम् इति. अहम् अनन्तरं तत्रैव दृश्यै इति. यदि अपेक्ष्यते भवान् एव स्वसाहाय्यकत्वेन स्वीक्रियताम् इति च.
तावत्पर्यन्तं भगिनि, बहु किमपि अस्ति तत्र.
द्रोणः वदति, वत्स, ततः पूर्वं ये कर्मणि लोट्टी अस्ति. भवान् इति कर्तृपदं, कर्णः इति कर्मपदम्.
उच्यतां, तावत्पर्यन्तं तद्भागं स्वीकरोतु भगिनि.
वच् धातु. ततः पूर्वं भवान् गत्वा कर्णं लोट्लक वच्
वच् धातु वदतु इति स्वीकुर्मः. वच् तत्र यतोहि तत्र वक्ति तत्र किं भवति, वचसि
वक्तु भवति, न जानामि.
अहमपि न स्मरामि तत्र वदतु इति वक्तु इति एव वा.
अत्र उच् इति धातुः अस्ति महोदय. उच् इति धातुः उच्यताम् इति भावकर्मणोः लोट्लकारे उच्यताम् इति भवति. उच् धातु धातोः प्रसङ्गे इति अष्टाध्यायी मध्ये दृष्टवती.
न, वच् अपि उच्यतां भवति.
वच् वच् इति अपि उच्यताम्. उच् वच् इति एव अस्ति खलु भगिनि, तत्र वच् धातुः अस्ति. वच् इत्यत्र वदति, तत्र उद्यते इति भवति तत्र. तत्र वक्ति, तत्र वक्ति इति अस्ति, तत्र लोटि किम् अस्ति, वक्तु, वक्तु अथवा वक्तात् इति अस्ति. अस्तु,
ततः पूर्वं भवान् गत्वा कर्णं वक्तु मम पूर्वसूचनानुसारं मम पूर्वसूचनानुसारं व्यूहः विरच्यताम् इति.
इदानीं तद् भागं स्वीकरोतु भगिनि. तत्र इति किम् उच्यतां, तत्र एकं वाक्यमस्ति, तस्य परिवर्तनं करोतु.
मम पूर्वसूचनानुसारं व्यूहं विरचतु इति.
विरचयतु, विरचयतु,
विरचयतु इति.
तत्र तत्र कर्तृपदं किं भवति तत्र?
भवान्, कर्तृपदं भवान्.
भवान् तत्र भवान् इति युक्ते कः? तत्र दुःशासनः वा कर्णः वा?
दुःशासनः, दुःशासनः.
प्रथमभागे दुःशासनः नाम भवान् गत्वा इति अस्ति, भवान् नाम दुःशासनः. किन्तु कर्णम् उद्दिश्य सः दुःशासनः वदति खलु? दुःशासनः कर्णमुद्दिश्य वदति. किं वदति? द्रोणः इति उक्तवान्. द्रोणः इति उक्तवान्. द्रोणः सन्देशं प्रेषितवान्. कः सन्देशः?
भवान् द्रोणस्य सूचनानुसारं व्यूहं विरचयतु इति.
तत्र भवान् नाम कर्णः.
कर्णः
एव तत्र व्यूहं विरचयति. समीचीनं. अस्तु, अग्रे भगिनि.
अश्वाः, गजाः, रथाः, पदातयः, सर्वे सैनिकाः च यथास्थानं स्थाप्यन्ताम् इति.
तत्र किम् अस्ति पुनः एतत् वाक्यं स्थाप्यन्ताम्? तत्र स्थाप्यन्ताम् इति अस्ति चेत् तत्र किमर्थं बहुवचने अस्ति स्थाप्यन्ताम् इति? बहुवचने अस्ति
कर्मपदानि सन्ति अश्वाः गजाः रथाः.
बहुवचने बहुवचने सन्ति बहुवचने. समीचीनं. भवान् समीचीनं.
अश्वान् गजान् रथान् पदातीन्.
हा समीचीनं. तत्र पदातयः नाम पदाती. तत्र हरि हरि अथवा कवीन् इति पदातीन्
पदातीन् सर्वान् सैनिकान् च यथास्थानं स्थापयन्तु इति.
स्थापयतु स्थापयतु भवान् इति.
स्थापयतु भवान् स्थापयतु
इति. समीचीनं. अग्रे
अहम् अनन्तरं तत्रैव दृश्यै इति.
तत्र दृश्यै इति अस्ति अनन्तरम्.
एतत् कर्तरि अस्ति.
दृश्यै दृश्यै कर्तरि नास्ति भगिनि. यतोहि दृश्य अनन्तरं दृश्यै. तत्र दृश्यै इति अस्ति. तत्र किं भवेत्? तत्र दृश्य इति रूपं दृष्ट्वा तत्र एतत् कर्मणि वा कर्मणि लोटि अस्ति. समीचीनं. तत्र कर्मणि लोटि. अतः तत्र वचनं किं? पुरुषः कः? दृश्य इति क्रियापदस्य
उत्तमपुरुषः एकवचनं.
एकवचनम्. अतः तत्र वाक्ये किं पदं भवेत्? दृश्ये अस्ति चेत् अहम्
अनन्तरं
न न अहम् अनन्तरं तत्रैव दृश्यै इति. अतः तत्र अहं दृश्यै इति अस्ति खलु. अहं दृश्यै. इदानीं तत्र दृश्य इति कर्मणि प्रयोगः इति उक्तवती खलु. अतः तत्र अतः अहम् इति पदं तत्र विभक्ति का? अहम् इति पदस्य विभक्ति
प्रथमाविभक्ति.
प्रथमाविभक्ति कर्मणि प्रयोगे प्रथमाविभक्ति अन्तं पदम् अस्ति चेत् तत् कर्तृपदं वा कर्मपदं वा?
कर्मपदम्.
कर्मपदम्. अतः तत्र अहं दृश्ये. इदानीं कर्तृपदं भवति चेत् तत्र तृतीयविभक्त्यन्तम् अस्ति किन्तु तद् अत्र न दत्तमस्ति किन्तु सूचितमस्ति. नाम सर्वदा तत्र भवता भवता इति एव आसीत् खलु. अतः तत्र भवता अहम् अनन्तरं तत्रैव दृश्यै. भवता अहं दृश्यै. इदानीं तत्र कर्तृप्रयोगः कः?
भवान् माम् अनन्तरं तत्रैव तत्रैव दृश्यताम्.
पश्यतु पश्यतु पश्यतु
पश्यतु इति.
तदेव अस्ति. तत्र दृश्य इति
दोषाः
न न भगिनि एतत् बहवः दोषाः. तत्र प्रथमवारम् अहम् एतत् पठितवान्. मम दोषाः अधिकाः आसन् अतः चिन्ता मास्तु. अस्तु अग्रे अन्तिमवाक्यं भगिनि.
यदि अपेक्ष्यते भवानेव स्वसहायकत्वेन स्वीक्रियताम् इति च.
तत्र यदि
यदि अपेक्ष्यते भवान् एव स्वसहायकत्वेन स्वीकरोतु इति च.
तत्र भवानेव
स्वीकरोतु
भवानेव तत्र भवानेव स्वीकरोतु इति च. तत्र दुःशासनः करणमुद्दिश्य वदति. अतः तत्र भवान् भवता स्वीक्रियताम् इति तत्र अथवा तत्र भवान् स्वीकरोतु, तत्र सहायकत्वेन स्वीकरोतु इति, नाम तत्र अहं साहाय्यं कर्तुं शक्नोमि इति, तत्र मम साहाय्यं यदि अपेक्षितमस्ति चेत् अहं साहाय्यं करोमि, भवतः कृते अहं साहाय्यं करोमि इति. तत्र दुःशासनः तत्र करणमुद्दिश्य वदति इति मन्ये, तत्र अहं साहाय्यं कर्तुं शक्नोमि इति. अस्तु, समीचीनम्. अस्तु, अग्रे सरामः. तर्हि
महोदय, प्रश्नः अस्ति महोदय, तत्र द्रोणः पूर्वस्य वाक्ये द्रोणः वत्स ततः पूर्वं भवता गत्वा कर्णः उच्यताम् अस्ति न महोदय? तत्र त्वान्तरूपमस्ति, त्वान्तरूपमस्ति चेत् कर्मपदं भवति न महोदय?
भवति, तत्र भवितुम् अर्हति, किन्तु भवेत् इति कोऽपि नियमः नास्ति खलु. अहं गच्छामि, अहं गत्वा कार्यं करोमि, तत्र कर्मपदं नास्ति खलु. अतः तत्र कर्मपदं भवेत् इति नास्ति, किन्तु समीचीनप्रश्नः, नाम कर्मणि प्रयोगे तत्र त्वान्तरूपं यद् किमपि भवेत् अथवा तुमुन्नरूपम् अस्ति चेदपि तत्र कर्तृप्रयोगः कर्तुं शक्नुमः, यतोहि तत्र एकमेव क्रियापदम् अस्ति, अत्र उच्यताम् इति अस्ति खलु, भवता गत्वा कर्णः उच्यताम् इति अस्ति. अतः तत्र भवान् गत्वा कर्णं वक्तु इति. तत्र किन्तु भवत्याः प्रश्नः समीचीनः, तत्र किं कुर्मः यदि तत्र भवता तत्र ग्रामः गत्वा इति भवति वा, अथवा ग्रामं गत्वा भवति वा इति प्रश्नः वा भवत्याः?
भवान् न महोदय, कर्मणि प्रयोगे अस्ति चेत्, कर्मणि प्रयोगः अस्ति चेत् गत्वा त्वान्तप्रत्यय आगच्छति चेत् कर्मपदं भवति वा न भवति वा इति प्रश्नः महोदय.
तत्र कीदृशं वाक्यम् इति एव दृष्ट्वा वक्तुं शक्नुमः, यत् सः अत्र कर्मपदं, तत्र यः उक्तवान् सः कर्मपदं न स्थापितवान्, अतः तत्र अत्र कर्मपदं नास्ति.
अस्तु महोदय.
किन्तु यदि कर्मपदम् अस्ति चेत् तत्र प्रायशः क्लेशः भवति इति एव सः न तत्र सः अथवा सा न स्थापितवान् स्थापितवती इति मन्ये भगिनि.
धन्यवादः.
समीचीनं भगिनि. अस्तु, अग्रे तत्र प्रिया भगिनी, अग्रे प्रिया भगिनी उक्तवती खलु आरम्भे. अस्तु, तर्हि शुभदा भगिनी वक्तुम् इच्छति वा अग्रे?
आं महोदय, तत्र एकः प्रश्नः आसीत्, तत्र अन्तिमे वाक्ये किं भवति, यदि अपेक्ष्यते भवानेव स्वयं सहायकत्वेन स्वीक्रियताम् इति च, तत्र भवानेव स्वयम् इति कर्मपदं वा कर्तृपदं वा?
हा, यतोहि स्वीक्रियताम् इति अस्ति, अतः कर्मणि प्रयोगः एव अस्ति, भवान् इति तत्र
कर्मपदम्,
कर्मपदम् अस्ति. हा, अतः तत्र कर्तृपदं किं भवति? मया. खलु? नाम तत्र अथवा तत्र मया इति चिन्तयामि, नाम तत्र अहम् अथवा मम, तत्र प्रायशः मम, एकनिमिषो भगिनि, तत्र भवान् एव स्वसहायकत्वेन स्वीक्रियतां, भवान् एव इति कर्मपदम् अस्ति, तत्र मया स्वीक्रियतां नाम अहं, तत्र प्रायशः तत्र अर्थविपरीततया भवति इति मन्ये, नाम अहं तत्र भवतः साहाय्यं स्वीकरोमि, अथवा तत्र साहाय्यं कस्य कृते इति मम मनसि किञ्चित् क्लेशः अस्ति भगिनि, तत्र
वाक्यस्य अर्थः किञ्चित् क्लेशकरः.
तत्र दुःशासनः कर्णस्य कृते साहाय्यं करोति वा अथवा कर्णः दुःशासनस्य कृते करोति वा इति सम्यक्तया न अवगच्छामि, किन्तु तत्र एकः अन्यस्य कृते साहाय्यं करोति इति तावत् अवगच्छामि.
अत्र परन्तु भवानेव स्वयं सहायकत्वेन स्वीक्रियताम्.
तत्र भवान्
महोदय, तत्र पूर्वस्य वाक्यम् अहम् अनन्तरं तत्रैव दृश्यै इति अस्ति किल महोदय?
समीचीनम्.
अहम् अत्र एव भवामि, यदि अपेक्षते भवानेव स्वयं सहायकत्वेन स्वीक्रियताम् माम् इति भवति वा?
अत्र स्वयम् इति अस्ति वा स्वसहायकत्वेन इति अस्ति वा स्वयम् इति अस्ति वा
आम् आम् मम पुस्तके स्वयम् इति अस्ति
स्वसहायकत्वेन इति अस्ति स्वीक्रियताम् इति अस्ति अस्तु अत्र
इत्युक्ते स्वस्य यदि भवता साहाय्यम् अपेक्ष्यते स्वस्य कृते तर्हि मां स्वीकरोतु इति भवति वा अहम् अत्र एव तत्र एव तिष्ठामि
किन्तु न किन्तु भगिनि तत्र माम् इति अस्ति चेत् कर्मपदं माम् इति भवति खलु तत्र माम् इति अस्ति चेत् तदेव तत्र अहम् इति रूपं भवेत् खलु कर्मणि प्रयोगे
प्रथमविभक्ति न तत्र अर्थः तादृशं भवति वा इति चिन्तितवती चेत्
अतः तत्र न जानामि भगिनि अतः तत्र
तत्र एव दृश्य इति पूर्वम् उक्तवान् सः
भगिनि एतत् कुर्मः भगिनि एतत् कुर्मः एतद् वाक्यम् इदानीं त्यजामः तस्मिन् विषये किञ्चित् अहमपि तत्र पृच्छामि पृष्ट्वा चिन्तनमपि कृत्वा अग्रिमे वर्गे वदामि किञ्चित् क्लेशजनकं वाक्यम् अस्ति अतः समीचीनप्रश्नः तत्र तस्मिन् विषये अग्रिमे वर्गे किञ्चित् चर्चयामः अस्तु हा अस्तु ततः अग्रे गच्छामः तर्हि भगिनि
अहं पठामि वा
हा पठतु भगिनि
दुर्योधनः अस्तु इति गतः अत्र गतः इति दुर्योधनः गतः गत्यर्थकः क्रियापदः गत्यर्थकं क्रियापदमस्ति अतः तत्र सः गतः इति अपि भवितुमर्हति तेन गतः अपि भवति
सत्यं
सः गतवान् इति तस्य कर्मणि कर्तरि
अस्तु समीचीनं
सर्वे भीष्मः द्रोणः कर्णः कृपः दुर्योधनः दुःशासनश्च रणाङ्गणे स्थिताः अत्रापि तावत् तादृशमेव स्थिताः इति
प्रत्ययः
स्थातिष्ठ इत्यस्य परन्तु अत्रापि कर्तरि अर्थेन अपि तत्र तप्रत्ययः प्रयुज्यते एकेन
सूत्रेण समीचीनम् अग्रे
कर्णः आचार्य प्रणमामि द्रोणः वत्स यशोवता समेध्यताम् न जानामि महोदय क्रियापदं किम् अस्ति अत्र
समेध्यताम् इति एव क्रियापदं तत्र नाम
उपसर्ग
एध्यताम् इति भवेत्
एध्यताम् एध्यताम् अस्तु एधते एधेते एधन्ते इति आत्मनेपदी क्रियापद धातुः अतः तस्य लोट्टि समेधतां भवति वा
समेधते न तत्र तदेव इति मन्ये भगिनि तत्र
यकारः न भवेत् परन्तु समेधताम् इति भवति वा
हा तत्र एद् धातुः एद् धातुः कर्तृप्रयोगे एदते भावे एद्यते खलु
परन्तु लोटि वयं
लोटि एद्यताम् इति सत्यम्
एधताम् एधताम् यकारः न तत्र न भवति
तत्र अस्तु एतत् अतः तत्र स्पष्टता वै अपेक्षिता इति कृत्वा तत्र कर्तृलटि एतते कर्तृलोटि एतथां किन्तु कर्मणि लटि किं भवति
कर्मणि लटि एध्यते
हा एध्यते यकारः आगतः खलु इदानीम्
आमाम्
इदानीं कर्मणि
समेध्यताम् इति कर्मणि लोटि अस्ति कर्तरि लोटि तु समेधताम् इति भवेत्
सत्यं हा समीचीनं भवति इदानीम् अवगतं मया अस्तु
यशोवता समेध्यताम् इत्यस्य यशोवता इति कर्तरि कर्तृपदं यशवान्
यशोवान् समीचीनं यशोवान् यशोवान्
यशोवान् समेधताम् इति भवेत्
यशोवान् समेधतां भवान् यशोवान् समेधताम्
भवान् यशोवान् समेधताम् भीष्मः आचार्य भीष्मः आचार्य ममापि एषः नमस्कारः द्रोणः पितामह मया एव ननु भवान् अभिवाद्यताम् अभिवाद्यताम् अभिवन्दन वन्द वन्दधातोः वा अभिवाद्यताम्
वादतु इति अभिवादतु इति एव भवति इति मन्ये अभिवाद वादिति
अभिवादनम् इति अर्थे अभिवादनम्
तत्र वन्द् इति अर्थे एव तत्र अभिवाद अभिवादते इति वा तत्र किमस्ति
निजन्तमस्ति वा महोदय वादि वाद्यताम्
ओ
निजन्तप्रयोगः अस्ति वा
न न भगिनि यतोहि अहमेव तत्र अहमेव तत्र
मया एव अभिवाद्यताम्
तत्र निजन्तः नास्ति इति मन्ये भगिनि अभिवाद् अभिवाद् तत्र बाध्यता
धातु किम् अस्ति धातु किम् अस्ति वद्ति वन्दिति धातु वदति धातु वा
न भगिनि तदेव तत् न स्मरामि तत्र वन्द् इति तु तत्र भिन्नरूपम् अस्ति तत्र अभिवन्दः
वाद् इति धातुः अस्ति वा वाद् इति अस्ति वा न सङ्गणके पुरतः अस्मि न
जानामि भगिनि तत्र
दृष्ट्वा
द्रष्टव्यमस्ति तत्र अभिवाद्यतां वन्द् धातुः तु तत्र अग्रे दत्तमस्ति अभिवन्दावः इति एतत् भिन्नमस्ति इति मन्ये
वाद् इति धातुः नास्ति किन्तु वद् इति निजन्ते एव वाद् इति भवति अभिवद्
अभिवद् इति अर्थः किम् अस्ति भगिनि अभिवद् अभिवदति इति किमपि अस्ति वा
वादय भवति वा अभिवादयति इति
अभिवादयति ओ तदपि भवितुम् अर्हति अभिवादयति किन्तु अर्थः कः इति द्रष्टव्यः
महोदय अत्र शब्दकल्पद्रुमे दृष्टवती तत्र अभि उपसर्गपूर्वकः वद् धातोः णिजन्त भावे प्रयोगः ल्युट् प्रत्यये अभिवादनम् इति भवति
अभिवादनम् अस्तु अस्तु अस्तु
वद् इति धातुः वद् एव धातुः अभि उपसर्गपूर्वकः वद् धातुः णिच् णिजन्त अस्ति णिजन्तस्य भावे प्रयोगः अस्ति
अस्तु 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 तर्हि तत्र अभिवादयति इति एव अस्ति वा तर्हि अस्तु अस्तु समीचीनम् अस्तु अतः तत्र कर्तृप्रयोगः कः इति वदति इदानीं तर्हि अहमेव
मया एव ननु भवान् अभिवाद्यताम् अहम् एव ननु भवन्तम् अभिवादयानि परस्मैपदी अस्ति अभिवादयानि आमाम्
इति अहमेव ननु भवन्तम् अभिवादयानि तत्र भीष्मः वदति नमस्कारः इति द्रोणमुद्दिश्य अतः द्रोणः वदति न न भवान् नमस्कारं मा करोतु मया एव करणीयं खलु इति सः वदति तत्र परस्पर आदरः अस्तु अग्रे भगिनि
तदेव अस्ति मया एव अभिवाद्यतां भीष्मः वदति भीष्मः वदति अहमेव अभिवादयानि इति अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्या वहै
सुन्दरं वाक्यम् अस्ति
आमाम्
इदानीं तत्र क्रियापदं कर्तृपदं कर्मपदम् एकवारं वदतु भगिनि तत्र
अथवा आवाभ्याम् आवाभ्याम् इत्युक्ते तृतीयाविभक्तौ तृतीयाविभक्तेः द्विवचनमस्ति तत्र प्रथमाविभक्तेः प्रथम द्विवचनम् अहम् आवाम् इति भवति अतः आवाम् 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 अन्योन्यम् अभिवन्दा द्विवचनं किं भवति पठाव अतः अभिवन्दाव
अभिवन्दाव अस्तु समीचीनम् आवाम्
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 आवाम् आवाम् अन्योन्यम् अभिवन्दाव इति
हा इति भवति सर्वे अवगतवन्तः वा सुन्दरं वाक्यम् अस्ति तत्र आवाम् आवाम् अन्योन्यम्
अहम् आवां वयं प्रथमा मम आवां तत्र द्वितीयम् आवाम् इति कर्मपदमस्ति प्रथमं
कर्मपदमस्ति अतः तत्र आवाम् इति कर्मपदमपि अस्ति
कर्तृपदमपि
अस्ति अतः समीचीनं वाक्यमस्ति हा तत्र अतः तत्र अथवा आवाम् आवाम् अन्योन्यम् अभिवन्दाव इति समीचीनं हा अस्तु धन्यवादः भगिनी हा अस्तु अग्रे अग्रे तत्र सुजाता भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय अस्तु आवाभ्यां परस्परं हस्ताः गृह्यन्ताम्
इदानीं तत्र कर्तृ क्रियापदं किमस्ति
गृह्यन्ताम्
अस्ति तत्र वचनं किं गृह्यन्ताम् इति पद क्रियापदस्य वचनम्
आवाभ्यां गृह्यन्ताम् प्रथमपुरुष एकवचनं गृह्यन्तु
गृह्यन्ताम् इति
लोट्लक लोट्लकारः प्रथमपुरुष एकवचनम्
एकवचनं गृह्यताम् इति
गृह्यतां गृह्यन्तां बहुवचनम् अस्ति गृह्यन्तां
बहुवचनम् अस्ति बहुवचनं कर्मणि प्रयोगे क्रियापदस्य बहुवचनम् अस्ति चेत् कर्तृपदस्य बहुवचनं वा कर्मपदस्य बहुवचनं वा
कर्मपदस्य बहुवचनं
कर्तरि कर्म कर्मणि प्रयोगः अस्ति अतः अस्तु अत्र अत्र कर्मपदं किम् अस्ति
आवाभ्यां परस्परम् आवां
न कर्मपदं कर्मपदं किम् अस्ति कर्मपदं कर्मणि प्रयोगे
हस्ताः
इति कर्मपदं कर्तृपदं किमस्ति कर्तृपदं किमस्ति
कर्तृपदम् आवाम्
आवां किन्तु विभक्त्यन्तम् अस्ति
आवाम् आवाभ्याम्
अस्तु समीचीनम् इदानीम् अस्तु तत्र आवाभ्याम् इति कर्तृपदस्य
तृतीयाविभक्ति
हस्ताः इति कर्मपदं प्रथमाविभक्त्यन्तं गृह्यन्ताम् इति बहुवचने अस्ति यतोहि कर्मपदं बहुवचने अस्ति समीचीनम् इदानीं तत्र कर्तृरूपं वदतु कर्तृ लोट् भवेत्
कर्तृ आवां परस्परं हस्ताः कर्मपद
हस्ताः तत्र
हस्तान् 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 गृह्णातु
इदानीं कर्तृपदं तु आवाम् अस्ति
आवां गृह्येताम्
न तत्र गृह्णाति गृह्णामि इति भवति तत्र गृह्णीव तत्र
गृह्णीव
गृह्णाव किम् अस्ति कोऽपि स्मरति वा
आवां परस्परं हस्तान् गृह्णीव गृह्णाव गृह्णाव गृह्णाव
हस्तान्
गृह्णाव दुर्योधन
अस्तु समीचीनम् अग्रे
दुर्योधनः आचार्य आगम्यताम् अत्र प्रियमित्रेण कर्णेन भवतः सूचनाम् अनुसृत्य व्यूहक व्यूहः रचितः त्वान्तरूपमस्ति रचितः इदानीं
त्वान्त नास्ति तप्रत्ययः
त्वाप्रत्ययः यक् तप्रत्ययः इदानीं वीक्षतां कर्मणि प्रय
अस्तु समीचीनं एकमेकं स्वीकृत्य वदतु तर्हि
आचार्यः आगम्यताम् अत्र आचार्यः आगम्यताम्
इति क्रियापदमस्ति तत्र कर्तृपदं स्थापयतु तत्र कर्तृपदं किमस्ति नास्ति न दत्तमस्ति किन्तु स्थापयतु किमस्ति कर्तृपदम्
अहं
न न अहं नास्ति आगम्यताम् इति कर्मणि प्रयोगः अस्ति अतः
गम्य गच्छतु
न न परिवर्तनं मा करोतु प्रथमतया तत्र कर्तृपदं स्थापयतु तत्र आगम्यताम् इति अस्ति केवलं तद् वाक्यं न भवति खलु केवलं क्रियापदम् अस्ति पूर्णवाक्ये कर्तृपदं भवेत् खलु अतः तत्र आगम्यताम् इति अस्ति चेत् तत्र दुर्योधनं वदति आचार्यः आगम्यताम् इति अस्ति चेत् तत्र किं भवेत्
दुर्योधनः आगम्यताम्
इति वदति द्रोणं दृष्ट्वा द्रोणम् उद्दिश्य सः वदति आचार्य अपि सः वदति आगम्यताम् आगम्यताम् इति यदि वदति चेत् कर्मणि प्रयोगः अस्ति कर्तृपदस्य विभक्तिः का भवेत्
कर्तृपदस्य विभक्ति तृतीया विभक्ति भवेत्
अस्तु अतः तत्र कम् उद्दिश्यता
आगम्यताम् अत्र
इति वाक्यं समीचीनं भवता आगम्यताम् अत्र इदानीं कर्मणि प्रयोगे अस्ति कर्मणि लोट्टि अस्ति कर्त्री लोट्टि वदतु इदानीं
भवान् आगच्छतु
अत्र हा समीचीनं भवान् अत्र
आगच्छतु
इति कर्त्री लोट् समीचीनं अस्तु अग्रे
प्रियमित्रेण कर्णेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः प्रियमित्रेण तृतीयाविभक्ति अस्ति
प्रियमित्रं
कर्णः भवान् भवतः सूचनाम् अनुसृत्य व्यूहः
कर्णः इति अस्ति अतः तत्र व्यूहः कर्मपदं भवति
व्यूहं
रचितवान् अस्ति कर्णः किं कृतवान् अस्ति सः व्यूहं
रचितवान् अस्ति
कथं सः व्यूहं रचितवान् अस्ति भवतः सूचनाम् अनुसृत्य
व्यूहं रचितवान्
तत्र कर्णेन व्यूहः रचितः अथवा कर्णः व्यूहं रचितवान् तत्र रचितः अस्ति चेत् व्यूहः इति अस्ति चेत् कर्णेन रचितः व्यूहः रचितः अस्ति केन रचितः
कर्णेन रचितः
सः व्यूहः किन्तु कर्णः रचितवान् इति अस्ति चेत् सः किं रचितवान्
व्यूहं रचितवान्
हा अतः प्रियमित्रं कर्णः भवतः सूचनामनुसृत्य व्यूहं
रचितवान्
अस्तु इदानीम् अग्रे
इदानीं वीक्ष्यताम् इदानीं भवान् वीक्षतु
तत्र वीक्ष्यताम् इति अस्ति तत्र वि उपसर्गः
उपसर्गः अस्ति
ईक्षिति धातु
ईक्षिति धातु
ईक्षते
ईक्षते वीक्षतु
यतोहि तत्र वीक्षतु अस्ति चेत् परस्मैपदीरूपम् अस्ति किन्तु ईक्षते वीक्षते
ईक्षते वीक्षेते आम् महोदय ईक्षते वीक्षेते वीक्षन्ते
अतः तत्र भवता वीक्षता भवान्
भवान्
वीक्षतां यकारः नास्ति तावदेव
वीक्षतां
भवता वीक्षताम् अथवा भवान् वीक्षताम् इति एव अस्ति धन्यवादः भगिनि अस्तु
धन्यवादः
शोभा भगिनी अग्रे पठितुम् इच्छति वा
आम् महोदय अग्रे कर्णः वदति महाशय रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः इमे गजाः इमे अश्वाः एते पदातयः च अवलोक्यन्ताम् अग्रे अग्रे अपि पठामि
वाक्यमपि स्वीकरोतु
द्रोणः वदति अस्तु व्यूहपत्रं पठ्यताम् मम उत्तरीयं किञ्चित् उन्नीयताम्
तावत् वदतु भगिनि
कर्णः वदति महाशय रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः तत्र कर्मणि स्थाप्यन्ताम् इति बहुवचने रथाः इति कर्मपदं भवति तत्र
समीचीनं कर्तृपदं किमस्ति
तत्र कर्तृपदं रथाः यत्र स्थाप्यन्ताम् इति सूचिता तत्र मया स्थापिताः इति भवति अतः
तत्र मया
मया इति कर्मणि प्रयोगे भवति
तत्र समीचीनं भगिनि अतः तत्र मया रथाः
मया रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः
तत्र मया स्थापिताः
मया स्थापिताः
अस्तु इदानीं तत्र मया रथाः यत्र स्थाप्यन्ताम् इति तत्र तत्र कर्मणि रूपम् अस्ति किन्तु कर्तृरूपं वदतु
कर्तरि कर्तरि प्रयोगे
तत्र
तत्र रथान् यत्र अस्तु तत्र स्थाप्यन्तं स्थापयतु इति सूचितवान् तत्र
किन्तु तत्र अहं
अहं
रथान्
अहं रथान् यत्र
स्थापयानि
अस्तु महोदय क्षम्यताम् अहं रथान् यत्र स्थापयानि इति
इति सूचित इति तदनन्तरं त्यजामः तत्र तावत्पर्यन्तं तत् अवगच्छामः
अहं रथान् यत्र स्थापयानि
इति सूचितवान् भवान् सूचितवान्
इति वक्तुं शक्नुमः तत्र किल सूचितवान् तत्र स्थापितवान् इति
तत्र सूचितवान् भवान् सूचितवान्
तत्र अहं स्थापितवान्
तत्र अहं स्थापितवान् समीचीनं तत्र अहं स्थापितवान् समीचीनम् अग्रे
अग्रे इमे गजाः इमे अश्वाः एते पदातयः च अवलोक्यन्ताम्
तत्र कर्तृपदं किम् अस्ति
तत्र अधुना भवता अवलोक्यन्ताम् इति भवति तत्र
समीचीनं
भवता इमे गजाः इमे अश्वाः एते पदातयः च भवता अवलोक्यन्ताम् अहं स्थापितवान् भवता अवलोक्यन्ताम् इति भवति
समीचीनम्
अतः तत्र आं महोदय भवान् तत्र गजाः इमान् गजान् इमान् अश्वान् एते अतः एता पदातयः एते पदातयः अतः तत्र तत्र एते इति किं भवति तत्र एषः एते एतानेव किल तदेव चिन्तितवती एतान् पदातयः तत्र पदाति इति अस्ति किल महोदय पदाति
पदाति
योगी योगिनः
योगिन तत्र हरिशब्दवत् इति मन्ये
हरि हरयः हरि पदातीन् क्षम्यताम्
पदातीन्
इमान् गजान् इमान् अश्वान् एतान् पदातीन् च अवलोकयन्तु क्षम्यताम्
तत्र प्रायः अवलोक न न किन्तु अवलो लोक् इति आत्मनिपदि धातु एव अस्ति इति मन्ये खलु यकारः नास्ति तावदेव अवलोकताम् समीचीनं भवान् अवलोकताम् समीचीनम् अग्रे
अग्रे द्रोणः अस्तु व्यूहपत्रं पठ्यताम् तत्र व्यूहपत्रं पठ्यताम् इत्युक्ते भवता पठ्यताम् अतः तत्र भवान् व्यूहपत्रं पठताम् आत्मनेपदि नास्ति पठतु मम उत्तरीयं किञ्चित् उन्नीयताम् तत्र उत्तरीयम् इत्युक्ते तत्र यत् खन्देः उपरि
अस्ति सत्यं
उत्तरीयम् इति किञ्चित् उन्नीयताम् इति अस्ति उत् नीयताम् इति नी धातुः नयतु आत्मनेपदि अपि भवति वा तत्र महोदय
नयतु
मम उत्तरीयं किञ्चित् उन्नयतु इति
तावदेव भवान् त्वं तत्र भवान् इति स्वीकरोतु भवान् मम
भवान् मम उत्तरीयं उन्नयतु अथवा उन्नया भवति
त्वम्
अस्ति चेत् उन्नया इति भवति
समीचीनं भगिनि तावदेव अस्ति अस्तु अग्रे तत्र वंशी सदा भगिनी क्षम्यतां तत्र भवती अद्य न पठितवती किन्तु इदानीं किञ्चित् पठति वा अत्र
पठितुं न शक्नोमि महोदय क्षम्यताम्
अस्तु 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 तर्हि अस्तु 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 तत्र मधु महोदय एकं वाक्यं पठति वा मधु महोदय अस्तु तर्हि तत्र अस्तु तर्हि तत्र ओ समयः अपि जातः अस्तु तर्हि तत्र प्रिया भगिनी भवती तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 धन्यवादः महोदय
धन्यवादः भगिनी